अथ चतुरशीति तम अध्याय वसुदेव जी का यज्ञोत्सव। श्री शुक उवाच सुत्वा पृथा सुबल पुत्र्यथ जाग्यसेनी माधव्यथ क्षितिपत्न्य उत स्वगोप्य कृष्णे खिलात्मनि हरौ प्रणयानुबंधम सर्वा विशिष्म्यू अलम अश्रुकलाकुलाक्ष्य इति संभाषमाणा स्वस्त्रीभिः स्त्रीषु नृभिरिन्द्रिषु आययुर्मुनयस्तत्र कृष्णराम दुदृक्षया द्वैपायनो नारदश्च च्यवनो देवलोषितः विश्वामित्रः शतानन्दो भरद्वाजोऽथ गौतमः रामः सशिष्यो भगवान् वसिष्ठो गालवो भृगुः पुलस्त्यः कश्यपोत्रिश्च मार्कण्डेयो बृहस्पतिः धृतश्चैकतश्च ब्रह्मपुत्रस्तथाङ्गिरः अगस्त्यो जाज्ञवल्क्यश्च वामदेवादयो परे तान् दृष्ट्वा सहसोत्थाय प्रागासीना निपादयः पाण्डवाः कृष्णरामौ च प्रणेमुर्विश्वबन्धितान् तान् आनर्चुः यथा सर्वे सह रामोचितोत्यत् स्वागतासन पाद्यार्घ्य माल्यधूपानुलेपनैः उवाच सुखमासीनान् भगवान् धर्मगुप्तनुः संसस्तस्य महतो जतवाचो न शृण्वतः श्रीभगवान् उवाच अहो वयम् जन्मभृतो लब्धम् कार्सेन तत्फलम् देवानामपि दुष्प्रापम् यद्योगेश्वरदर्शनम् प्रश्न प्रश्न प्रहो पादार्चनादिकम् नह्यम् मयानि तीर्थानि न देवाः मृच्छिला मया ते पुनन्तुर्कालेन दर्शनादेव साधवः नाग्निर्न सूर्यो न चन्द्र तारका न भूर्जलम् खम् श्वसनोऽथ वाङ्मनः उपासिता भेदकृतो हरन्त्यघम् विपश्चितो घृन्ति मुहूर्त सेवया यस्यात्मबुद्धिः कुणपेतृधातुके स्वधिः कलत्रादि सौम इज्यधिः यत्तीर्थबुद्धिः सलिलेन कश्चित् गणेशभिज्ञेषु स एव गोखरः श्रीशुक उवाच निशम्येथम् भगवतः कृष्णाय कुण्ठमेधस वचो दुरन्वयम् विप्रः तूष्णीमासन् भ्रमद्धियः चिरम् विमृश्य मुनय ईश्वरस्येषितव्यताम् जनसङ्ग्रह इत्युचुः स्मयन्तस्तम् जगद्गुरुम् मुनय ऊचुः जन्माया तत्त्वविदुत्तमा वयम् विमोहिता विसृजामधीश्वरः जदीषितव्या यतिगूढैहया अहो विचित्रम् भगवद्विचष्टितम् अनीहयेतद्बहुधैकयात्मना सृजत्तवत्यत्तिनबध्यते यथा भौमर्हि भूमिर्बहुनामरूपिणी अहो विभुम्नश्चरितम् विडम्बनम् अथापि काले स्वजनाभिगुप्ते बिभर्षि सत्त्वम् खलनिग्रहाय च स्वलीलया वेदपथम् सनातनम् वर्णाश्रमात्मा पुरुषः परो भवान् ब्रह्मते हृदयम् शुक्लम् तपः स्वाध्याय संयमहि यत्रोपलब्धम् सद्व्यक्तम् अव्यक्तम् च ततः परम् तस्माद् ब्रह्मकुलम् ब्रह्मन् शास्त्रजोनेस्त्वमात्मनः सभाजयसि सद्धाम तद्ब्रह्मण्याग्रणीर्भवान् अद्य नो जन्म साफल्यम् विद्यायास्तप्सो दृशः त्वया सङ्गम्य सद्गत्या जदन्तः श्रेयसाम् परः नमस्तस्मै भगवते कृष्णाय कुण्ठमेधसे स्वयोगमायाच्छन्न महिम्ने परमात्मने नयम् विनन्तमी भूपा एकरामाश्च विष्णयः माया जवनिकाच्छन्नम् आत्मानम् कालमीश्वरम् यथा शयानः पुरुष आत्मानम् गुणतत्त्वदृक् नाममात्रेन्द्रियाभातम् न वेदरहितम् परम् एवम् त्वाम् नाममात्रेषु विशेषेन्द्रिये हया माया विभ्रमच्चित्तो न वेद स्मृतिपप्लवात् तस्याद्यते ददृशिमाङ्घ्रिमघौघमर्ष तीर्थास्पदम् हृदि कृतम् सुविपक्वयोगैः उत्सिक्तभक्तिपहत्ता सजीवकोशा आपुर्भवद्गतिमथोऽनुगृहाण भक्तान् श्रीशुक उवाच इत्यनुज्ञापदासार्हम् धृतराष्ट्रम् युधिष्ठिरम् राजर्षे स्वाश्रमान् गन्तुम् मुनयो दधिरे मनहम् तद्वीक्षितान् प्रव्रज वसुदेव महाजसः प्रणम्य चोपसङ्गय्य बुभाषेदम् सुयन्त्रितः वसुदेव उवाच नमो वः सर्वदेवेभ्य ऋषयः श्रोतुमर्हतः कर्मणा कर्मनिर्हारो यथा स्यान्नस्तदुच्यताम् नारद उवाच नातिचित्रमिदम् विप्र वसुदेवो विभूत्सया कृष्णम् मत्वार्भकम् जन्म पृच्छति श्रेये आत्मनः सन्निकर्षोत्र मर्त्यानाम् अनादरणकारणम् गाङ्गम् हित्वा यथान्याम् भस्तत्रत्यो जातिशुद्धये यस्यानुभूतिः कालेन लयोत्पत्त्यादिना शिवै स्वतोऽन्यस्माच्च गुणतो न कुतश्च न रिष्यति तम् क्लेशकर्म परिपाकगुणप्रवाहैरव्याहतानुभवमीश्वरमद्वितीयम् प्राणादिभिः स्वविभुवैरुपगूढमन्यो मन्नीत सूर्य मेघ हिमो पर आ गही अथो चूर मुनयो राजन आभास्यानक दुंदुभिम सर्वेषाम शृण्वताम राज्ञाम तथैवा चितरामयो कर्मणा कर्म निर्हार एष साधु निरूपितः यच्छ्रद्धया जजद विष्णु सर्वजज्ञेश्वर मखै चित्तस्योपशमोऽयं वै कविः शास्त्र चक्षुषा दर्शितः सुगमो योगो धर्मश्चात्मुदा वः अयम् स्वस्तेनः पन्था द्विजातिर्गृहमेधिनः यच्छ्रद्धयाप्तवित्तेन शुक्लेन इज्येत पुरुषः वित्तैषणाम् यज्ञदानैर्गृहैर्दार्शुतैषणाम् आत्मलोकैषणाम् देवः कालेन विसृजेत् बुधः ग्रामे त्यक्तैषणः सर्वे ययुर्धीरास्तपो वनम् ऋणैस्त्रिभिर्द्विजो जातो दिवर्षि पितॄणाम् प्रभो यज्ञाध्ययन पुत्रैस्तान् अनिस्तीर्य त्यजान् वपतेत् त्वम् त्वद्यमुक्तो द्वाभ्याम् वै ऋषि पितुर्महामते यज्ञैर्देवर्णमुन्मुच्य निर्ऋणो असरणो भव वसुदेव भवानूनम् भक्त्या परमया हरिम् जगतामीश्वरम् प्रार्चः स जद्वाम् पुत्रताम् गतः श्रीशुक उवाच इति तद्वचनम् श्रुत्वा वसुदेव महामनः तान् ऋषिन् ऋत्विजो बभ्रे मूर्ध्ना अनन्यप्रसाद च तयेनम् ऋषयो राजन् वृताधर्मेण धार्मिकम् तस्मिन् अयाजयन् क्षेत्रे मखैरुत्तम् कल्पकहे तद्दीक्षायाम् प्रवृत्तायाम् वृष्णयः पुष्करस्रजः स्नातः सुवाससो राजन् राजानः सुष्ठुलङ्कृतः तन्महिष्यश्च मुदिता निष्कण्ठ सुवासस दीक्षाशालाम् पाजगमुरालिप्ता वस्तुपाणयः निर्दुर्मृदङ्गपटः शङ्खभैर्यानकादयः न नृतुर्नर्तक्यस्तुष्टुवुः सुतमागधः जगुः सुकण्ठ्यो गन्धर्व्यः सङ्गीतम् सहभर्तृकः तमभ्यसिञ्चन् विधिवत् अक्तम् अभ्यक्तम् ऋत्विजः पत्नीभिरष्टा दशभिः सोमराजिमोडिभिः ताभिर्दुकूलबलैर्हार्णुपुरकुण्डलैः सुलङ्कृताभिर्विभव दीक्षितो जिनसंवृतः तस्य त्रिजो महाराज रत्नकौशेयवासस स सदस्या विरोजुस्ते यथा वृत्रहणोध्वरे तदा रामश्च कृष्णश्च स्वैर्बन्धुभिरन्वितौ रेजतुः स्वसुतैर्दार जीवेशौ स्वविभूतिभि ईजेन यज्ञम् विधिना अग्निहोत्रादिलक्षणैः प्राकृतैर्वैकृतैर्यज्ञे द्रव्यज्ञानक्रियेश्वरम् अथर्तृगेभ्यो अदात् काले थाम्नातम् सुदक्षिणा स्वलम् कृतेभ्योऽलङ्कृत्य गोभूकन्या महाधनः पत्नी संयाजावधृतैश्चरित्वा ते महर्षयः शश्नु राम हृदय विप्रा यजमान पुरः सरः स्नातोऽलङ्कारवासांसि बन्दिभ्यो दात् तथा स्त्रियः ततः स्वलम् कृतो वर्णान् आश्वभ्योऽन्येन पूजयत् बन्धून् सदारान् ससुतान् पारिबर्हेण भूयसा विदर्भकोशल कुरुन् काशी केकय सृञ्जयान् सदस्यर्त्युक्सुरगणान् नृभूत पितृचारणान् श्रीनिकेतमनुज्ञाप शशन्तः प्रययुः कर्तुम् धृतराष्ट्रोऽनुजः पार्थ भीष्म द्रोणः प्रथा जमौ नारदो भगवान् व्यास सुहृत् सम्बन्धि बान्धवान् बन्धून् परिष्वज्य जदून् सौहार्दा क्लीन चेत् स जयुर्विरह कृष्ण स्वदेशांश्चापरे जना नन्दस्तु सह गोपाले बृहत्या पूजयार्चितः कृष्ण रामोग्रसेनादेर् निवासित् बन्धुवत्सलः वसुदेवञ्जसो तिर्य मनोरथ महारणवम् सुहृद्वृत्तः प्रीतमना नन्दमाह करे स्पृशन् वसुदेव वाचम् भ्रातर ईश कृतः पाशो नृणाम् यः स्नेह संगीतः तम् दुस्त्यजम् अहम् मन्ये सूराणामपि योगिनाम् अस्मास्व प्रतिकल्पयम् यत्कृताज्ञेषु सप्तम मैत्र्यार्पिता अफलावापि न निवर्तेत कदाचित् प्रागकल्पाश्च कुशलम् भ्रातरो नाचराम् हि अधुना श्रीमदान्धाक्षा न पश्यामः पुरः सतः मा राज्य श्रीरभूत्पुंसः श्रेयः कामस्य मा नद स्वजनानुत बन्धून् वा न पश्यति यजान्धृक् श्रीशुक उवाच एवम् सहृद शैथिल्या चित्त आनकदुन्दुभिरुरोध तत्कृताम् मैत्रीम् स्मरन् अश्रुविलोचनः नन्दस्तु सख्युः प्रियकृत् प्रेम्णा गोविन्दरामयोः अद्य स्व इति मांसास्त्रीन् जद्भिर्मानितो वसत् ततः कामैः पूर्यमाण सव्रजः सह बान्धवः परार्घ्याभरणक्षम नानानर्घपरिच्छदे वसुदेवोग्रसेनाभ्याम् कृष्णोद्धवबलादिभिः दत्तमादाय पारिबर्हम् यापितो जद्भिर्जयौ नंदो गोपाश गोप्यश गोविंद चरणाम बुजे मन क्षिप्तम पुनर्हर्तुम अनीशा मथुराम जयु बंधु सुप्रतिजाते सुवृष्णे कृष्ण देवता वीक्ष प्रावृषमा सन्नाम यजुर्द्वारवतीम पुनः जनेभ्य कथयाम चक्रु जदुदेव महोत्सव यदाशीतीर्थयात्रायाम सुहृत संदर्शनादिकम इति श्रीमद्भागवते महापुराणे दशमस्कंधे उत्तरार्धे तीर्थयात्रानुवर्णनम नाम चतुरशीतितमोऽध्यायः।